एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। प्रतिनिधि सभा सदस्यानाम् एतत् विक्रमवर्षीय निर्वाचनस्य अन्तर्गतम् अधुनावधि प्रत्यक्ष प्रणाल्याः पक्षस्य एकषष्ट्यधिकैकशतस्य स्थानानाम् परिणामः प्राप्तो वर्तते, यत्र राष्ट्रिय स्वतन्त्र दलेन चतुर्विंशत्यधिकैकशते स्थानेषु विजय अधिगतोऽस्ति। इदानीमपि एकस्मिन् स्थाने रासोपादम् अग्रस्थाने वर्तते। नेपाली कांग्रेस दलेन सप्तदशसु स्थानेषु, नेकपा एमाले दलेन अष्टसु स्थानेषु, नेपाली कम्युनिष्ट दलेन सप्तसु स्थानेषु, श्रम संस्कृति दलेन त्रिषु स्थानेषु च विजय अधिगतोऽस्ति। राष्ट्रिय प्रजातन्त्र दलेन एकस्मिन् स्थाने विजय प्राप्तो वर्तते। एकस्मिन् स्थाने स्वतन्त्र प्रत्याशी विजयी सम्भूतोऽस्ति। इदानीमपि मतगणनायाः कार्यं सञ्चलदस्ति। एकस्मिन् स्थाने एमाले दलम् अग्रस्थाने वर्तते। अत्रान्तरे धनुषा जनपदस्य प्रथम निर्वाचन क्षेत्रस्य मतपरिणामस्य घोषणां रोद्धुं निर्णीतं वर्तते इति निर्वाचनायोगेन ज्ञापितमस्ति। सर्वोच्च न्यायालये विषयस्य अस्य विचाराधीनत्वात् एतत् सम्बन्धि न्यायालयात् आदेशस्य अप्राप्तिं यावत् धनुषा जनपदस्य प्रथम निर्वाचन क्षेत्रस्य मतपरिणामस्य घोषणां न कर्तुं धनुषा जनपदस्य प्रथम निर्वाचन क्षेत्रस्य निर्वाचनाधिकृत कार्यालयाय पत्राचार विहितोऽस्ति इति शाखाधिकृत अरूण अधिकारी असूचयत्। आयोगेन अस्यैव फाल्गुन मासस्य अष्टादशे दिवसीय धनुषा जनपदस्य प्रथम निर्वाचन क्षेत्रस्य रासोपा दलस्य प्रत्याशिनः किशोरी शाहस्य प्रत्याशितां ऋण सूचना केन्द्रस्य कलंक सूच्यां नाम्नः विद्यमानस्य प्रमाणस्य प्राप्तिं प्रदर्श्य निरस्तीकर्तुं निर्णीतम् आसीत्। अर्थमन्त्री रामेश्वर खनालः भयरहिते शान्तिपूर्णे च वातावरणे निर्वाचनं सफलतया सम्पादितम् इत्यालक्ष्य निर्वाचनायोगाय वर्धापनं दत्तवान् अस्ति। निर्वाचनायोगे ह्य कार्यवाहक प्रमुख निर्वाचन आयुक्तेन रामप्रसाद भण्डारिणा सह अर्थमन्त्री खनालः निर्धारिते एव समये निर्वाचनस्य सम्पादनाय आयोगस्य भूमिका महत्वपूर्णा प्रशंसनीया अस्ति इति प्रावोचत्। अर्थमन्त्री खनालः निर्वाचनमिदं देशे सुशासनं संस्थाप्य लोकतन्त्रस्य स्थापनायै आवश्यकमासीत् इति उक्तवान्। पूर्ववर्तिनां निर्वाचनानाम् अपेक्षया सम्प्रति सम्पन्नं निर्वाचनम् अधिकव्यवस्थिततया मर्यादिततया शान्तिपूर्णरूपेण च सम्पन्नमस्ति इति असौ प्रावोचत्। गृहमन्त्री ओमप्रकाश अर्यालः अस्य वर्षस्य प्रतिनिधिसभा सदस्यानां निर्वाचने निर्वाचनगतं सुशासनं स्थापितमस्ति इति उक्तवान् वर्तते। निर्वाचनायोगस्य कार्यालये ह्य निर्वाचन सुरक्षा समीक्षायाः अनन्तरं संचारमाध्यमै सह भाषमाणः गृहमन्त्री अर्यालः राजनैतिक सुशासनस्य आधारशिला निर्वाचन सुशासनमस्तीत्यतः निर्वाचनेन अनेन इदं कार्यं सम्पन्नमस्तीति प्रावोचत्। गत भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः जनजीवनाम् आन्दोलनस्य विषयम् अनुसन्धातुं निर्मितेन अनुसन्धानायोगेन ह्य स्वस्य प्रतिवेदनं सर्वकारस्य समक्षं प्रस्तुतमस्ति। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य आयोजिते कार्यक्रमे आयोगस्य अध्यक्षः गौरीबहादुर कार्की प्रधानमन्त्रिणः समक्षं प्रतिवेदनं प्रास्तौत्। आयोगस्य अध्यक्षः कार्की आत्मनः पक्षतः निष्ठापूर्वकं कार्यं विहितं, पूर्वाग्रहं विनैव यद्दृष्टं यच्च ज्ञातं तत्सर्वं प्रतिवेदने संस्थापितम् इति असूचयत्। आयोगस्य सदस्यः विज्ञानराज शर्मा प्रतिवेदनमिदं प्रमाणसंकलनमात्रमस्तीत्यतः दण्डनकारिणा निकायेन अनुसन्धानं विधेयमित्यवोचत्। असौ प्रतिवेदने अनुसन्धानस्याधारः निर्मितोऽस्तीति स्पष्टीकृतवान्। प्रतिवेदनं गृह्णन्ति प्रधानमन्त्री सुशीला कार्की प्रतिवेदनमिदम् आत्मना गृहमन्त्रिणा च अधीत्य मन्त्रिपरिषदि प्रस्तोष्यते इति उक्तवती। समानुपातिक निर्वाचन प्रणाल्याः अन्तर्गतं पञ्चसप्ततिर्लक्षाणां त्रयोविंशतिः सहस्राणां दशाधिकशतद्वयस्य मतानां गणना सम्भूता अस्ति। तत्र समानुपातिक प्रणाल्यां रासोपा दलेन षट्त्रिंशत् लक्ष्याणि एकोनपञ्चाशत् सहस्राणि अष्टौशतं चतुष्षष्टि च मतानि प्राप्तानि सन्ति। राष्ट्रपादलं समानुपातिक प्रणाल्यामपि अग्रस्थाने वर्तते। नेपाली कांग्रेस दलं द्वादश लक्ष्याणि त्रिंशत् सहस्राणि त्र्यशीत्यधिक शतद्वयं च मतानि प्राप्य द्वितीय स्थाने वर्तते। नेकपा एमाले दलेन दश लक्ष्याणि एकोनचत्वारिंशत् सहस्राणि पञ्चशतं चतुर्दश च मतानि प्राप्तानि सन्ति। एवमेव नेपाली कम्युनिष्ट दलेन पञ्च लक्ष्याणि त्रयस्त्रिंशत् सहस्राणि नवशतम् अष्टात्रिंशत् मतानि प्राप्तानि वर्तन्ते। तथैव राप्रपा दलेन लक्ष्यद्वयं षट्पञ्चाशत् सहस्राणि एकोन नवत्यधिक नवशतं च मतानि प्राप्तानि सन्ति। श्रम संस्कृति दलेन लक्ष्यद्वयं एकोन चत्वारिंशत् सहस्राणि चतुष्षष्टि च मतानि प्राप्तानि वर्तन्ते। प्रधानमन्त्री सुशीला कार्की राज्यस्य नीति निर्माण स्तरे महिलावर्गस्य आनयनस्य आवश्यकतां दर्शयति। षोडशाधिकैकशततम अन्तर्राष्ट्रिय महिला दिवसस्य अवसरे ह्य प्रधानमन्त्री कार्यालये आयोजिते कार्यक्रमे प्रधानमन्त्री कार्की समाजे पश्चवर्तिनौ जनाः विकासस्य मूलधारतः वञ्चिताः महिलाश्च आधिक्येन प्रताडिताः सन्तीति उदैरयत्। राष्ट्रियसभायाः नवनिर्वाचितानां सदस्यानां शपथग्रहणकार्यक्रमः अद्य भवति। संघीय संसद सचिवालयस्य महासचिवस्य पद्मप्रसाद पाण्डेयस्य अनुसारेण अद्य दिवादिवादने सिंहप्रासादवर्तिनि विधि न्याय मानवाधिकार समितेः सभाकक्षे शपथ कार्यक्रमः निर्धारितो वर्तते। राष्ट्रियसभायाः सदस्यानां निर्वाचनं गतमाघमासस्य अष्टादशे दिवसे सम्भूतम् आसीत्। अन्तर्राष्ट्रिय क्रिकेट क्रीडा परिषदः टी ट्वेन्टी नाम्न्याः विंशति ओभर आत्मिकायाः विश्वकप क्रिकेट क्रीडा प्रतियोगितायाः अन्तिमस्पर्धायां ह्य न्यूजीलैण्ड देशं पराजित्य भारतदेशेन उपाधि विजितोऽस्ति। भारतदेशस्य अहमदाबादवर्तिनि नरेन्द्र मोदी रंगशालायां सम्पन्नायाम् अन्तिमायां क्रीडायां न्यूजीलैण्ड देशं षण्णवति धावनांकैः पराजित्य भारतदेशेन उपाधि विजितोऽस्ति। ह्य भारतदेशेन प्रदत्तं षट्पञ्चाशदधिक शतद्वय धावनांकानां लक्ष्यं न्यूजीलैण्ड देशेन एकोनविंशत्यां ओवरांकेषु सर्वेषां क्रीडकानां क्षेत्रौ एकोनषष्ट्युत्तरैक शतधावनांका एव अर्जितः। प्रथमं क्रीडितेन भारतदेशेन निर्धारितेषु विंशत्याम् ओवरांकेषु पञ्चानां क्रीडकानां क्षेत्रौ पञ्चपञ्चाशदुत्तर शतद्वय धावनांकानां लक्ष्यं प्रस्तुतम् आसीत्। एतत्पूर्वं चतुर्विंशत्युत्तर द्विसहस्रतम ख्रीष्टवर्षे आयोजितायामपि स्पर्धायां भारतदेशेन विश्वकप इति उपाधि विजितः आसीत्।